पूर्वे काले दशरथः अयोध्यायाः नृपः तस्य तिस्रः जायाः तासां कैकेयी सुमित्रा कौसल्या च इति नामानि। दशरथस्य च कौसल्यायां पुत्रः रामः नाम। सः नृपः रामम् एव युवराजम् इच्छति स्म। राजसूयस्य दिने तु कैकेयी तम् उवाच, मम पुत्रः भरतः युवराजः भवतु। तद् रामेण राज्यं त्यक्त्वा वनं गन्तव्यम् इति।